ॐ श्री गुरुभ्यो नमः हरिः ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षधैर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागंसस्तनूभिः व्यचेम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षधैर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागुंसस्तनूभिः व्यसेम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु आपमापामपः सर्वाः अस्मादस्मादितो मुतः अग्निर्वायुश्च सूर्यश्च सहसंजस्करर्धिया वायुवश्वारश्मिपतयः मरीच्यात्मानो अद्रुहः देवीर्भुवनसूवरीः पुत्रवत्त्वाय मे सुता महानाम्नेर्महामानाः महसो महसस्वः देवीः पर्जन्यसूवरीः पुत्रवत्त्वाय मे सुता अपाश्नुष्णिमपारक्षः अपाश्नुष्णिमपारघम् अपाग्रामपचावर्तिम् अपदेवीरितोहिता वज्रं देवीरजीतादिश्च भुवनं देवसूवरीः आदित्यानदिदिं देवीं योनिनोर्ध्वमुदीशत शिवा नः शन्दमा भवन्तु दिव्या आप ओषधयः सुमृढीका सरस्वती माते व्योमसन्दृशी स्मृतिः प्रत्यक्षमैतिह्यम् अनुमानश्चतुष्टयम् एतैरादित्यमण्डलम् सर्वैरेव विधास्यते सूर्यो मरीचिमादत्ते सर्वस्माद्भुवनादधि तस्याः पाकविशेषेण स्मृतं कालविशेषणम् नदीव प्रभवात् काचिद् अक्षम्यात्स्यन्दते यथा तां नद्योऽभिसमायन्ति सोरुः सती न निवर्तते एवन्नानासमुत्थानाः कालाः संवत्सरग्निश्रिताः अणुशश्च महशश्च सर्वे समवयन्त्रितम् सतैः सर्वैः समाविष्टः ऊरुः सन्न निवर्तते अधिसंवत्सरं विद्यात् तदेव लक्षणे अणुभिश्च महद्भिश्च समारूढः प्रदृश्यते संवत्सरप्रत्यक्षेण नादिसत्त्वप्रदृश्यते पटरो विक्लिधः पिङ्गः एतद्वरुणलक्षणम् यत्रैतदुपदृश्यते सहस्रं तत्र नीयते एकगुं हि शिरो नानामुखे कृत्स्नं तद्रतुलक्षणम् उभयतः सप्तेन्द्रियाणि जल्पितं त्वेव जिह्यते शुक्लकृष्णे संवत्सरस्य दक्षिणवामयोः पार्श्वयोः तस्यैषा भवति शुक्रं ते अन्यद्य जदन्ते अन्यत् विषुरूपे अहनी द्यौरिवासी विश्वा हि माया अवसि स्वधावः भद्रा ते पूषन्निहरातिरस्त्विति नात्र भुवनं न पूषा न पशवः नादित्यः संवत्सर एव प्रत्यक्षेण प्रियतमं विद्यात् एतद्वै संवत्सरस्य प्रियतमगुं रूपं योऽस्य महानर्थ उत्पत्स्यमानो भवति इदं पुण्यं कुरुष्वेति दत्तमाहरणं दद्यात्। साकं जानातुं सप्तधमाहुरेकजं षडद्यमार्षयो देवजा इति तेषामिष्टानि विहितानि धामसः स्थात्रेरेजं देवि कृतानि रूपशः को नु मर्या अमिथितः सखा सखायमब्रवीत् जहागो अस्मदीशते यस्तित्याज सखिवितगुं सखायं न तस्य वाच्य विभागो अस्ति यदीगुं शृणोत्यलगगुं शृणोति नहि प्रवेद सुकृतस्य पन्थामिति ऋतुरृतुनानुद्यमानः विननादाभिधावः षष्टिश्च स्त्रिगुंशका वल्गाः शुक्लकृष्णौ च षाष्टिकौ साराघवस्त्रैर्जरदक्षः वसन्तो वसुभिः सह संवत्सरस्य स विदुः प्रैषकृत्प्रथमः स्मृतः अमूनादयदेत्यन्यान् अमूगिश्च परिरक्षतः एतावाचः प्रयुज्यन्ते यत्रैतदुपदृश्यते एतदेव विजानीयात् प्रमाणं कालपर्यये विशेषणं तु वक्ष्यामः ऋतूनां तन्निबोधता शुक्लवासारुद्रगणः ग्रीष्मेणावर्तते सह निजहं पृथिवीगुं सर्वाम् ज्योतिषा प्रदिक्षेन सह विश्वरूपाणि वासागुंसी आदित्यानां निबोधता संवत्सरीणं कर्मफलं वर्षाभिर्दधतागुंसः अदुःखो दुःखचक्षुरिव तद्मापीतैव दृश्यते शीतेनाव्यधयन्निव रुरुदक्ष इव दृश्यते ह्लादयते ज्वलतश्चैव शाम्यतश्चास्य चक्षुषी या वै प्रजा भृग्दृश्यन्ते संवत्सरात्ता भृग्दृश्यन्ते याः प्रतिष्ठन्ति संवत्सरेदाः प्रतिष्ठन्ति वर्षाव्ययित्यर्थः। अक्षिदुःखोत्थितस्यैव विप्रसन्ने कनीनिके आङ्क्तेजाद्गणन्नास्ति ऋभूणां तन्निबोधता कनकाभानि वासागुंसि अहतानि निबोधता अन्नमश्रीतमृज्मीदा अहं वो जीवनप्रदः एतावाचः प्रयुज्यन्ते शरद्यत्रोपदृश्यते अभिदून्वन्दोऽभिग्रन्त इव वातवन्तो मरुद्गणाः अमुतो जेतुमिषु मुखमिव सन्नद्धाः सह ददृशेः अपध्वस्तैर्वस्ति वर्णैरिव विशिखासः कवर्दिनः अक्रुद्धस्य योत्स्यमानस्य क्रुद्धस्येव लोहिनी हेमतश्चक्षुषी विद्यात् अक्ष्णयोः क्षिपणोरिव दुर्भिक्षं देवलोकेषु मनूनामुदगं गृहे एतावाचः प्रवदन्तीः वैद्युतो यान्ति शैशिरीः ता अग्निः पवमाना अन्वैक्षत इह जीविकामपरिपश्यन् तस्यैषा भवति इहेहवस्व तपसः मरुतः सूर्यत्वजः शर्म सप्रथा आवृणे अतिताम्राणि वासागुंसि अष्टिवज्रिशदग्निजा विश्वे देवा विप्रहरन्ति अग्निजिह्वा असश्चता नैव देवो न मर्त्यः न राजा वरुणो विभुः नाग्निर्नेन्द्रो न पवमानः मातृकच्च न विद्यते दिव्यस्यैका धनुरात्निः पृथिव्यामपराश्रिता तस्येन्द्रो वम्रिरूपेण धनुर्जामचिनत् स्वयं तदिन्द्रधनुरित्यज्यम् अभ्रवर्णेषु चक्षते एतदेव संयोर्बार्हस्पत्यस्य एतद्रुद्रस्य धनुः रुद्रस्य त्वेव धनुरात्निः शिर उत्पिपेषा सप्रवर्ग्योऽभवत् तस्माद्य सप्रवर्गेण यज्ञेन यजते रुद्रस्य स शिरः प्रतिदधाति नैनगुं रुद्र आरुको भवति य एवं वेद अत्योर्ध्वाक्षोतिरश्चाद् शिशिरः प्रदृश्यते नैव रूपं न वा सागुंसि न चक्षुः प्रतिदृश्यते अन्योन्यन्तु न हि गुस्रातः सतस्तद्देव लक्षणम् लोहितोऽक्ष्निसारशीर्ष्णिः सूर्यस्योदयनं प्रति त्वं करोषि न्यञ्जलिकां त्वं करोषि निजानुकाम् निजानुकामेऽन्यञ्जलिका अमीवाचमुपासतामिति तस्मै सर्वरतवो नमन्ते मर्यादाकरत्वात्प्रभुरोधाम् ब्राह्मण आप्नोति य एवं वेद स खलु संवत्सरेतैः सेनानीभिः सह इन्द्राय सर्वान् कामानभिवहति स द्रप्सः तस्यैषा भवति अवद्रप्सो अगुं सुमतीमतिष्ठत् या नः कृष्णो दशभिः सहस्रैः आवर्तमिन्द्रस्य च्यातमन्तम् उपस्नुहितं नृपणामदद्राभिति एतयैवेन्द्रः सलावृक्या सह असुरान् परिभृश्यति पृथिव्यगुं सुमती तामन्ववस्थितः संवत्सरो दिवं च नैवं विदुषाचार्यां देवासिनौ अन्योन्यस्मै द्रुह्यतां यो द्रुह्यति भ्रश्यते स्वर्गान् लोकाद् इत्रतुमण्डलानि सूर्यमण्डलान्याख्यायिकाः अत ऊर्ध्वगं सनिर्वचनाः आरोगो भ्राजः पटरः पतङ्गः स्वर्णरो ज्योतिषीमाने विभासः ते यस्मै सर्वे दिवमादपन्ति ऊर्जं दुहाना अनवस्फुरन्त इति कश्यपोऽष्टमः स महामेरुं न जहाति तस्यैषा भवति यत्ते शिल्पं कश्यपरोचनावत् इन्द्रियावत् पुष्कलं चित्रभानु यस्मिन् सूर्या अर्पिता सप्तसाकम् तस्मिन् राजानमधिविश्रयेममिति ते अस्मै सर्वे कश्यपा ज्योतिर्लभन्ते तान् सोमः कश्यपादधिनिर्दमति भ्रष्टा कर्मकृतिवैवम् प्राणो जीवानीन्द्रियजीवानि सप्तशीर्षण्याः प्राणाः सूर्या इत्याचार्याः अपश्यमहमेतान् सप्त सूर्यानिति पञ्चकर्णो वात्स्यायनः सप्तकर्णश्च प्लाक्षिः आनुश्रविक एव नौ कश्यप इति उभौ वेदयिते न हि सेकुमिव महामेरुं गन्तुम् अपश्यमहमेतत् सूर्यमण्डलं परिवर्तमानं गार्ग्यः प्राणत्रातः गच्छन्द महामेरुम् एकं जाजहतम् भ्राजपटरपतङ्गानिहने तिष्ठन्नातपन्ति तस्मादिह तप्त्रितपाः अमुत्रेतरे तस्मादिहातप्त्रितपाः तेषामेषा भवति सप्तसूर्यादिवमनुः प्रविष्टाः तानन्वेति पथिभिर्दक्षिणावान् ते अस्मै सर्वे घृतमातपन्ति ऊर्जं दुहाना अनपस्फुरन्त इति सप्तर्त्विजः सूर्या इत्याचार्याः तेषामेषा भवति सप्तदिशो नाना सूर्याः सप्त होतार ऋत्विजः देवा आदित्या ये सप्ता तेभिः सोमाभिरक्षण इति तदप्याम्नायः दिग्भ्राजऋतून् करोति एतयैवावृता सहस्रसूर्यताया इति वै सम्पायनः तस्यैषा भवति यद्यावहिन्द्रते शतकं शतं भूमिः उत स्युः नत्वा वज्रिन् सहस्रगुं सूर्याः अनु न जातमष्टरोदसी इति नानालिङ्गत्वादृदूनां नानासूर्यत्वम् अष्टौ दुव्यवसिता इति सूर्यमण्डलान्यष्टाद ऊर्ध्वम् तेषामेषा भवति चित्रं देवानामुदगादनीकम् चक्षुर्मित्रस्य वरुणस्याग्नेः आप्राप्त्या वा पृथिवी अन्तरिक्षम् सूर्य आत्मा जगदस्थस्थुषश्चेति क्वेदमब्रह्निविशते क्वायगं संवत्सरोमिदः क्वाह क्वेयं देवरात्री क्वमासा ऋतवश्रिताः अर्धमासा मुहूर्ताः निमेषास्त्रुटिभिः सह क्वेमा आपो निविशन्ते यदीतो यान्ति सम्प्रति काला अप्सु निविशन्ते आपः सूर्ये समाहिताः अभ्राण्यपः प्रपद्यन्ते विद्युत्सूर्ये समाहिता अनवर्णे इमे भूमि इयं चासौ च रोदसी किग्स्विदत्रान्तरा भूतम् येने मे विधृते उभे विष्णुना विधृते भूमि इति वत्स्यस्य वेदना इरावदीधेनुमतिः भूतम् सूयवसिनी मनुषे दशस्ये व्यष्टभ्नाद्रोदसी विष्णवेते दादर्थ पृथिवीमभिदो मयूखैः किं तद्विष्णोर्बलमाहुः का दीप्तिः किं परायणम् एको यद्धारयद्देवः रेजसी रोदसी उभे वाताद्विष्णोर्बलमाहुः अक्षरा आद्दीप्तिरुच्यते त्रिपदाद्धारयद्देवः यद्विष्णोरेकमुत्तमम् अग्नयो वायवश्चैव एतदस्य परायणम् पृच्छामि त्वापरं मृत्युम् अवमं मध्यमं च तुम् लोकं च पुण्यपापानाम् एतत्पृच्छाभि सम्प्रति अमुमाहुः परं मृत्युम् पवमानं तु मध्यमम् अग्निरेवावमो मृत्युः चन्द्रमाश्चतुरुच्यते अनाभोगाः परं मृत्युम् पापाः संयन्ति सर्वदा आभोगास्त्वेव संयन्ति यत्र पुण्यकृतो जनाः ततो मध्यममायन्ति चतुमग्निं च सम्प्रति पृच्छामि त्वा पापकृतः यत्र यातयते यमः त्वन्नस्तद्ब्रह्मन् प्रब्रूहि यदि वेत्था सतो गृहान् कश्यपादुदिताः सूर्याः पापान्निर्ग्रन्थि सर्वदा रोदस्योरन्तर्देशेषु तत्र न्यस्यन्ते वासवैः ते शरीराः प्रपद्यन्ते यथा पुण्यस्य कर्मणः अपाण्यपादके शासः तत्र ते यो निजा जनाः मृत्वा पुनर्मृत्युमापद्यन्ते अद्यमानाः स्वकर्मभिः आशादिकाः क्रिमय इव ततः पूयन्ते वासवैः अपैदं मृत्युं जयति य एवं वेद स खल्वैवं विद्ब्राह्मणः दीर्घश्रुत्तमो भवति कश्यपस्यातिथिः सिद्धगमनः सिद्धागमनः तस्यैषा भवति आयस्मिन् सप्तवासवाः रोहन्ति पूर्व्यारुहः ऋषिरिह दीर्घश्रुत्तमः इन्द्रस्य घर्मो अतिथिरिति कश्यपः पश्यको भवति यत्सर्वं परिपश्यतीति सौक्ष्म्याद् अथाग्नेरष्टपुरुषस्य तस्यैषा भवति अग्नेनयसुपधाराये अस्मान् विश्वानि देव वयुनानि विद्वान् युयोध्यस्मज्जुहुराणमेनः भूयिष्ठां ते नम उक्तिं विधेमेति अग्निश्च जातवेदाश्च सहोजा अजिरा प्रभुः वैश्वानरो नर्यापाश्च पङ्क्तिराधाश्च सप्तमः विसर्पेवाष्टमोऽग्नीनाम् एतेष्टौ वसवः क्षिता इति यदर्त्वेवाग्नेरर्चिर्वर्णविशेषाः నీలార్చిశ్చ పీతకార్చిశ్చేతి అధవాయోరేకాదశ పురుషస్యైకాదశ స్త్రీకస్య ప్రభ్రాజమానావ్యవదాతాః యాశ్చ వాసుకి వైద్యుతాః రజతాః పరుషా శ్యామాః కపిలా అతిలోహితాః ఊర్ధ్వా అవపతందాశ్చ వైద్యుదైత్యేకాదశ నైనం వైద్యుదో హి నస్తి య ఏవం వేద సహోవాచ వ్యాసః పారాశర్యః విద్యుద్వదమేవాహం మృత్యుమై ఈచ్ఛమితి న త్వగామగుం హంతి య ఏవం వేద అథ గంధర్వగణాః స్వానభ్రాడ్ అంగారిర్బంభారిః హస్తస్సుహస్తః కృశానుర్విశ్వావసుః మూర్ధన్వాన్సూర్యవర్చాః కృతిరిత్యేకాదశ గంధర్వగణాః దేవాశ్చ మహాదేవాః రశ్మయశ్చ దేవాగరగిరః నైనంగరో హి నస్తి య ఏవం వేద గౌరీమిమాయ సలిలా నితక్షతి ఏకపదీ ద్విపదీ సా చతుష్పదీ అష్టాపదీ నవపదీ బభూవుషీ సహస్రాక్షరా పరమే వ్యోమన్నితి వాచో విశేషణం అధనిగదవ్యాఖ్యాతాః తాననుక్రమిష్యామః వరాహవస్వతపసః విద్యున్మహసో ధూపయః స్వాపయో గృహమేధాశ్చేత్యేతే ఏ చేమే శిమి విద్యుషః పర్జన్యాః సప్త పృథివీమభివర్షంతి వృష్టిభిరితి ఏతయైవ విభక్తి విపరీతాః సప్తభిర్వాతైరుదీరితాః అమూల్లోకానభివర్షంతి తేషామేషా భవతి సమానమేతదుతకం ఉచ్చైత్యవచాహభిః భూమిం పర్జన్యాజిన్వంతి దివం జిన్వంత్యగ్నయ ఇది యదక్షరం భూతకృతం విశ్వే దేవా ఉపాసతే మహర్షిమస్య గోప్తారం జమదగ్నిమకుర్వత జమదగ్నిరాప్యాయతే ఛందోభిశ్చతురుత్తరైః రాజ్ఞః సోమస్య తృప్తాసః బ్రహ్మణా వీర్యవత శివానః ప్రతిశోదిశః తచ్ఛంగ్యోరావృణీమహే గాతుం యజ్ఞాయ గాతుం యజ్ఞపతయే దైవీ స్వస్తిరస్తు నః స్వస్త్రం మానుషేభ్యః ఊర్ధ్వం జిగాదు భేషజం శన్నో అస్తు ద్విపదే శంచతుష్పదే సోమపా అసోమపా ఇది నిగదవ్యాఖ్యాతాః సహస్రవృతియం భూమిః పరం వ్యోమ సహస్రవృత్ అశ్వినా భుజ్యూనా సత్యా విశ్వస్య జగదస్పతి జాయా భూమిః పదిర్వ్యోమ మిథునం దా అతుర్యథుః పుత్రో బృహస్పతి రుద్రః సరమా ఇది స్త్రీ పుమం శుక్రం వామన్యద్యజదం వామన్యద్ విషురూపే అహనీద్యౌరివస్థః విశ్వాహి మాయా అవధస్వధావంతౌ భద్రావాం పూషణా విఖరాతిరస్తు వాసాత్యౌ చిత్రౌ జగదో నిధానౌ ద్యావా భూమే చరథః సగుం సఖాయౌ తావశ్వినా రాసభాస్వాహవం మే శుభస్పతి ఆగతకం సూర్యయా సహ త్విగ్రోహ భుజ్యుమశ్వినోధ మేఘే రయిన్న కశ్చిన్మమృవాం అవాహాః తమోహదుర్నౌభిరాత్మన్వతీభిః అంతరిక్షప్రుడ్భిరపోదకాభిః తిస్రః క్షస్త్రిరహాదివ్రజద్భిః నాసత్యా భుజ్యుమూహదుః పదంకైః సముద్రస్య ధన్వన్నార్ద్రస్య పారే త్రిభీరథైః శతబద్ధిః షడశ్వైః సవితారంబితన్వంతం అనుభద్రాదిశాంబరః ఆపపూరుషంబరశ్చైవ సవితారే పశోభవత్ త్యగం సుతృప్తం విదిత్వైవ బహుసోమగిరం వశీ अन्वेति दुग्रोवक्रियान्तम् आयसूयान्सोमतृप्सुषु ससङ्ग्रामस्तमो द्योत्योदः वाचोगाः पिबाति दद् सतद्गोभिस्तवात्येत्यन्ये रक्षसानन्विताश्च ये अन्वेति परिवृत्यास्तः एव वेदौ स्थो अश्विना ते एते द्युः पृथिव्योः अहरहर्गर्भं दधाते तयोरेतौ वत्सावहो रात्रे पृथिव्या अहः दिवो रात्रिः ता अभिसृष्टौ दम्पती एव भवदः तयोरेतौ वत्सौ अग्निश्चादित्यश्च रात्रेर्वत्सः श्वेत आदित्यः अह्नोऽग्निः ताम्रो अरुणः ता अभिसृष्टौ दम्पती एव भवदः तयोरेतौ वत्सौ वृत्रश्च वैद्युतश्च अग्नेर्वृत्रः वैद्युत आदित्यस्य ता अभिसृष्टौ दम्पती एव भवदः तयोरेतौ वत्सौ उष्मा च निहारश्च वृत्रस्योष्मा वैद्युतस्य निहारः तौ तावेव प्रतिपद्येते सेगं रात्रिगर्भिणी पुत्रेण संवसति तस्या वा एतदुर्बणम् यद्रात्रौ रश्मयः यथा गोर्गर्भिण्या उल्बणम् एवमेतस्य उल्बणम् प्रजयिष्णुः प्रजया च पशुभिश्च भवति य एवं वेद एतमुद्यन्तमभियन्तं चेति आदित्यः पुण्यस्य वत्सः अथ पवित्राङ्गिरसः ॐ हरिः ॐ।